इयम् आकाशवाणी। सम्प्रति वार्ताः श्रूयन्ताम्। प्रवाचकः कृष्णप्रसादोपाध्यायः। लोकसभया संशोधनात्मकं वक्फ विधेयकं स्वीकृतम्। विपक्षिभिः प्रस्तुतानि संशोधनानि अस्वीकृत्यैव द्वात्रिंशदधिकद्विशतमतानामुत्तरे अष्टाशीत्यधिकद्विशतमतैः विधेयकमिदम् अङ्गीकृतम्। लोकसभायां गतमध्यरात्र्याः अनन्तरमपि विधेयकेऽस्मिन् परिचर्चा जाता। विधेयकस्यास्योद्देश्यमस्ति यत् वक्फ प्रबन्धनान्तर्गतानि चलाचलधनानि पारदर्शिततया क्षेत्रीयाधिकारिभिः समं समन्वयं संस्थाप्य प्रबन्धितानि स्युरिति। विधेयकमिदं मुस्लिममहिलाभ्यः विशेषतया विधवाभ्यः परित्यक्तृभ्यश्च सामाजिकार्थिकदृष्ट्या स्थितौ परिष्कारप्रदानमस्ति। सहैव हि विधेयकमिदं समेषां मुस्लिमसमुदायानां वक्फप्रबन्धने प्रातिभाग्यमपि प्रयच्छति। विधेयकेऽस्मिन् विवादस्य प्रत्युत्तरे अल्पसंख्यकमन्त्रिणा किरण रिजिजू इत्यनेन उक्तं यत् वक्फ बोर्ड इत्यमुम् इतोप्यधिकतया उदारं भवितव्यं, येन वक्फ प्रशासनं निर्णयग्रहणे अन्येषां मुस्लिमसम्प्रदायानां प्रातिनिध्यं भवेत् इति। मन्त्रिणा एतदपि उक्तं यत् वक्फ प्रबन्धनस्य वैधानिक प्रपत्रादिषु मुस्लिमधर्मेतरजनानां हस्तक्षेपादिकं स्वीकरणीयं नास्तीत्यपि उक्तमस्ति। तेनोक्तं यत् भारतम् अल्पसंख्यकेभ्यः सर्वाधिकतया सुरक्षितं राष्ट्रं वर्तते। विपक्षिभिः मोदिप्रशासने अल्पसंख्यकविरोधि अस्तीति प्रत्यारोपस्य खण्डनं कुर्वता मन्त्रिणा प्रोक्तं यत् मोदिप्रशासनेन पार्सीसदृशेभ्यः अल्पसंख्यकेभ्यः अपि अत्यधिकानि अधिकाराणि सन्ति प्रदत्तानि।
ये किसी का जमीन छीनने का कानून नहीं है। राज्य सरकारों को अधिकार दिया गया है कि जो ऑलरेडी रजिस्टर्ड है उसका तो कोई डिस्प्यूट नहीं है, लेकिन जो डिस्प्यूटेड है, जो कोर्ट में पेंडिंग है, उसको हम यह कानून बना के कैसे हटा सकते हैं।
इतः पूर्वं विधेयकमिमं सदनपटले संस्थापयता मन्त्रिणा प्रोक्तं यत् अस्य विधेयकस्य सम्बन्धः मुस्लिमधर्मावलम्बीनां धार्मिकव्यवहारेषु कथमपि सम्बन्धः नास्तीति। विपक्षिभ्यः उत्तरं ददता गृहमन्त्रिणा अमितशाहेन उक्तं यत् मन्त्रिमण्डलेन अनुमोदितं संयुक्तसंसदीयसमित्या विस्तृतविचारविनिमयानन्तरञ्च संस्तुतमिदं विधेयकमस्तीति। श्रीशाहेन उक्तं यत् एषा विस्तृता भ्रान्तिः अस्ति यत् विधेयकमिदं मुस्लिमधर्मावलम्बीनां धार्मिकाचरणेषु हस्तक्षेपं करिष्यतीति।
सरकार शांति प्रस्तापित करने के सभी उच्चतम प्रयास कर रही है। राष्ट्रपति शासन आने के बाद दोनों समुदायों से चर्चा भी हुई, दो मीटिंग दोनों समुदायों के सारी संस्थाओं से अलग अलग हुई है। पहली चिंता शांति प्रस्तापित करने की है। जैसा मैंने कहा, चार महीने से एक भी मौत नहीं हुई है।
प्रधानमन्त्री नरेन्द्रमोदी द्विदिवसीय यात्रायां थाईलैंड देशं प्रति प्रस्थास्यति। प्रधानमन्त्री अद्य प्रातः बिम्स्टेक शिखर सम्मेलनम् इत्यस्मिन् भागग्रहणाय प्रयाति। यात्रेयं श्रीमोदिनः तृतीया थाईलैंड देशयात्रा वर्तते। श्रीमोदी अद्य संध्यायां बैंकॉक नगरे स्वकीयेन थाई समकक्षेण श्री पेतोंगतार्न शिन वात्रा इत्यनेन सह द्विपक्षीय चर्चां विधास्यति। सः द्विपक्षीय सम्बन्धानां समीक्षात्मकं पुनरावलोकनमपि करिष्यति इति वार्ताहराणाम् अनुमानमस्ति। अमेरिकादेशस्य राष्ट्रपतिः डोनाल्ड ट्रम्पः पारस्परिक टैरिफ इत्यस्य घोषणाम् अकरोत्। तदनुसारं नैकेषां देशानामुपरि टैरिफ इत्यस्य अनुमोदनं भविष्यति, यद्धि तस्य आयातस्य 26% भविष्यति। वार्ताहरैः सह भाषमाणेन राष्ट्रपतिना प्रोक्तं यत् टैरिफ इति पूर्णतया पारस्परिकं न भविष्यति। सहैव हि अमेरिकादेशः तेभ्यः राष्ट्रेभ्यः वाशिंगटन इत्यस्योपरि योजितानां शुल्कानां प्रायशः अर्धपरिमितमेव स्वीकरिष्यति। अपि च क्रीडावार्तासु मनुभाकर इत्येषा भुषुण्डिकया लक्षभेदिका क्रीडिका लक्षभेदीनां त्रिचत्वारिंशत् सदस्यानां भारतीयदलस्य नेतृत्वं करिष्यति। अर्जेण्टिनायाः ब्यूनस आयर्स इत्यत्र अद्यारभ्य आरभमाणे ISSF विश्वचषक स्पर्धायां भागं भजिष्यन्ति एते क्रीडकाः। इति वार्ताः।